इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः नवदिल्ल्यां स्वकीय निवासस्थाने संयुक्तराज्यामेरिकादेशस्य भारते नियुक्तस्य राजदूतस्य सर्गियो गोर इत्यस्य स्वागतं कृतम्। तस्य कार्यकालावधौ भारत अमेरिका व्यापक वैश्विक सामरिक सहभागित्वम् इतोपि सुदृढं भविष्यति इति श्रीमोदी सामाजिकान्तर्जालीये सन्देशे दृढविश्वासं प्रकटितवान्। विदेशमन्त्री डॉ एस जयशंकरः अपि नवदिल्ल्यां भारते नियुक्तेन अमेरिकादेशस्य राजदूतेन सर्गियो गोर इत्यनेन सह भारत अमेरिका सम्बन्धयोः तथा तस्य वैश्विक महत्वस्य विषये चर्चितवान्। सामाजिकान्तर्जालीये सन्देशे डॉ एस जयशंकरः अवदत् यत् सः श्रीगोरवर्यस्य नूतनस्य दायित्वस्य कृते शुभाशयाः प्रार्थयति इति। पूर्वं विदेशसचिवः विक्रम मिश्री अमेरिकादेशस्य नियुक्तेन राजदूतेन सह मिलित्वा तस्य कार्यकालस्य सफलतायाः कामनाम् अकरोत्। एतदतिरिच्य भारते नियुक्तः अमेरिकादेशस्य राजदूतः राष्ट्रियसुरक्षापरामर्शदेन एनएसए अजीत डोवालेन सह वार्तालापम् अकरोत्। श्रीगोरवर्यः अवदत् यत् अमेरिका भारतं च स्वतन्त्र हिन्द प्रशान्तक्षेत्रस्य प्रगतिं प्रति प्रतिबद्धौ स्तः। प्रधानमन्त्रिणा नरेन्द्रमोदिना नवदिल्ल्यां एन्थ्रोपिक संस्थायाः सीईओ इति मुख्य कार्यकारी अधिकारिणा डेरियो अमोडोई इत्यनेन सह मेलनं कृतम्। एकस्मिन् सामाजिकान्तर्जालीय सन्देशे श्रीमोदी एन्थ्रोपिक इत्यस्य विस्ताराय स्वागतम् अकरोत् तथा च सः प्रमुखक्षेत्रेषु विकासाय एआई इत्यस्य उपयोगाय मिलित्वा कार्यं कर्तुम् उत्सुकः अस्ति इति उक्तवान्। कनाडादेशस्य विदेशमन्त्री अनीता आनन्दः अद्यारभ्य भारत सिंगापुर चीन देशानां राजनैतिक यात्रायां भविष्यति। कनाडादेशस्य मन्त्रिणः यात्रा हिन्द प्रशान्त कार्यनीतेः भागरूपेण एतैः देशैः सह द्वैपाक्षिक सम्बन्धान् सहयोगं च प्रवर्धनाय अस्ति। भारतयात्रायां श्री आनन्दः नवदिल्ल्यां विदेशमन्त्रिणा डॉ एस जयशंकरेण तथा वाणिज्योद्योगमन्त्रिणा पीयूषगोयलेन सहापि मेलनं करिष्यति। बिहारराज्ये बिहारविधानसभानिर्वाचनस्य कृते महागठबन्धनस्य घटकदलानाम् अन्तः आसनविभाजनस्य व्यवस्थायाः निराकरणाय चर्चा अधुनापि प्रचलति। आरजेडी इति राष्ट्रिय जनता दलस्य अध्यक्षः लालू प्रसाद यादवः दलस्य प्रत्याशिनां चयनाय दलस्य वरिष्ठ नेतृभिः सह ह्यः मेलनं कृतवान्। अस्मिन् सभायां पूर्व केन्द्रीय मन्त्रिणः पशुपति कुमार पारसस्य नेतृत्वे राष्ट्रिय लोक जनशक्ति दलस्य हेमन्त सोरेनस्य नेतृत्वे झारखण्ड मुक्ति मोर्चा इति दलस्य च द्वयोः नूतन दलयोः बिहार विधानसभा निर्वाचने प्रवेशस्य विषये अपि चर्चा अभवत्। अस्मिन् विषये अन्तिम निर्णयं स्वीकर्तुं दलः लालू प्रसाद यादवम् अधिकृतम् अकरोत्। कांग्रेस दलम् अपि पटना नवदिल्ली नगरयोः वरिष्ठ नेतृभिः सह वीडियो कॉन्फ्रेंसिंग इति आभासीय माध्यमेन उपवेशनं कृतवान्। भारत वेस्टइंडीज दलयोः क्रिकेट निकष श्रृंखलायाः द्वितीय स्पर्धायां ह्यः द्वितीये दिने क्रीडावसानं यावत् वेस्टइंडीज दलेन प्रथम पर्याये चतुर्णां क्रीडकानां हानौ चत्वारिंशदुत्तरैकशतं धावनाङ्काः विनिर्मिताः। इतः पूर्वं भारतेन प्रथमे पर्याये पञ्चक्रीडकानां हानौ अष्टादशोत्तरपञ्चशतं धावनाङ्केषु प्रथम पर्याः अवसानं घोषितम्। भारतस्य कृते यशस्वी जायसवालः सुभमन गिल इत्यसौ च शतकीयम् अवदानं कृतवन्तौ। इति वार्ताः।